नम सर्वेभ्यः अद्य कोविदवर्गे त्रयस्त्रिंशः पाठः आगस्ट् मासस्य षोडशः दिनाङ्कः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो गतवर्गे अस्माभिः तद्धितान्तानाम् अध्ययनम् आरब्धम् तद्धितः नाम कः इति विषये कश्चन सामान्यपरिचयः अस्माभिः प्राप्तः किं नाम तद्धिताः सुबन्तेभ्यः अर्थविशेषे योज्यमानाः प्रत्ययाः सो तद्धिताः प्रत्ययाः तद्धितास् आर् सफिक्सस् केभ्यः प्रत्ययाः योज्यन्ते सुबन्तेभ्यः सो प्रत्ययास् विच् आर् एडेड् टु नौन्स् किमर्थं तद्धितप्रत्ययानां योजनं भवति अर्थविशेषः कञ्चित् विशिष्टम् अर्थं बोधयितुं नामपदेभ्यः ये प्रत्ययाः योज्यन्ते ते तद्धिताः इति कथ्यन्ते यस्मिन् प्रत्यये यस्मिन् शब्दे तद्धितप्रत्ययः अन्ते अस्ति सः शब्दः तद्धितान्तः इत्युच्यते तत्र कानिचन उदाहरणानि दृष्टानि पुत्रः इदं तस्य इदं भावः समूहः अधीते तरति एते सर्वेपि अर्थविशेषाः तत्र नामपदम् एकं भवति तस्मात् नामपदात् प्रत्यये योजिते तद्धितान्तः शब्दः भवति इति ज्ञातवन्तः अत्र कोविदस्तरे विशिष्य सप्तविभागेषु तद्धितान्तानाम् अध्ययनं क्रियते अपत्यार्थकाः भावार्थकाः तस्येदं मत्वर्थीयाः तरप्तमप् अव्ययानि विशेषार्थाः इति तत्र किम् अपत्यार्थकः इत्युक्ते किम् भावार्थकः इत्युक्ते किम् इति प्रश्नः स्यात् यदा तं तं विभागं प्रविशामः तदा एव तस्य विषये वक्ष्यामि आदौ प्रथमः प्रभेदः अस्ति अपत्यार्थकाः तद्धिताः इति तत्र प्रथमः प्रश्नः अपत्यं नाम किम् इति बहूनां मनसि स एव प्रश्नः भवति अपत्यम् इत्युक्ते पुत्रः अथवा पुत्री अ चैल्ड् इत्यर्थः द सन् आर् डाटर् इन् कामन् इस् रेफर्ड् टु एस् अपत्यम् इति अतः वयं सामान्यतः एतादृशविग्रहवाक्यं लिखामः दशरथस्य अपत्यं पुमान् अपत्यं पुमान् इत्यत्र कोऽपि विशेषार्थः न दशरथस्य पुत्रः इत्यर्थः एवमेव जनकस्य अपत्यं स्त्री अपत्यं स्त्री इत्युक्ते पुत्री अपत्यशब्दः समानः अतः पुत्रः वा पुत्री वा इति बोधयितुं पुमान् स्त्री इति विग्रहवाक्यं सामान्यतः एवं लिख्यते दशरथस्य पुत्रः इति लेखने दोषः नास्ति विग्रहः नाम कः अर्थावबोधार्थं यद्वाक्यम् उपयुज्यते तस्यैव विग्रहः इति नाम अतः दशरथस्य पुत्रः इत्युक्ते अपि अर्थबोधः भवति विग्रहः भवितुम् अर्हति किन्तु साम्प्रदायिकरीत्या एवं विग्रहः लिख्यते किमर्थमेवं लिख्यते इति चेत् पाणिनिः सूत्ररचनायां तस्य अपत्यम् इति अपत्यम् इति शब्दमेव प्रयुक्तवान् अतः वयं सर्वत्र अपत्यम् अपत्यम् अपत्यार्थकतद्धितः इति व्यवहारं कुर्मः पुत्रः अथवा पुत्री इत्यर्थः अपि च अन्यः एकः विशेषः अस्ति अपत्यम् इत्यस्य साक्षात् पुत्रः पुत्री इत्यर्थः तेन सह गोत्रापत्यम् इत्यपि अस्ति व्याकरणे इत्युक्ते तस्य वंशे जातः यः कोऽपि इट् नीड् नाट् बी डिरेक्ट्ली द सन् सो अ ग्राण्ड् सन् अ ग्रेट् ग्राण्ड् सन् आर् एनी डिसेण्डेण्ट् ईस् आल्सो काल्ड् अपत्य So there is a difference in technically when we look, we call it one as apatya and other as gotrapatya. Hintu samanyataha yada vadamaha. So the apatyam need not be a direct son. It can also be a descendant. Tatha api vyavaharaha asti. Udaharanam pashyamaha chet ramasya bahuni namani santi. Dasharathihi. Ityukte dasharathasya apatyam puman. Raghavaha raghoho apatyam puman. Kakutstha kakutsthasya apatyam puman. Aikshvakaha ikshvakoho apatyam puman. Sarvatrapi ete sarvepi tadhitantaha. But there Rama is the son of Dasharatha and the descendant of the others. So raghoho gotrapatyam, a descendant of Raghu. Kakutsthasya gotrapatyam, a descendant of Kakutstha, a descendant of Ikshvaku. It goes back to many lineages. Okay, so many generations ago, Ikshvaku was much, much before Rama. But still, a person is identified by many of their ancestors. Okay, and all those can be conveyed very succinctly through the Taddhita. Samskrite Ati Vishishteshu Prayogeshu Taddhitantanam Prayogaha Api Asti. Okay. So, it's a very, very unique feature of Samskrita. Evam Nakevalam Putrasya Kintu Paramparayaha Eva Suchanartham Taddhitantaha Upayujyante. So, whether it is the son of Raghu or a grandson or anybody, he can all be called as Raghava. Tatra Bhedaha Nasti. So, ete pratyayaha. So, apatyarthe ye taddhita pratyayaha bhavanti, te apatyarthaka taddhitaha iti uchyante. So, there are many suffixes. Yadivayam ashtadhyayim pashyamaha, panchavimshatehe adhikaha apatyarthaka taddhita pratyayaha santi. So, there are more than 25 taddhita pratyayas in giving the same sense of apatyam. So it will say for these words you get pratyaya 1, for these words you get pratyaya 2 and so on. Okay. So here, unlike samasa, in taddhitas it is very, very difficult at this level to make a general rule. Okay. You cannot say if the shabda is like this you can add this pratyaya and so on. For now, all you can do is familiarize yourselves with the prayogas. Shabdanam parichayaha punah punah vigraha vakyam taddhitanta shabdam cha pathitva manasi svikaraniyam sa eva upayaha anyaha kopi upayaha nasti kimartham dasharathasya putrasya dasharathi iti bhavati raghoho putrasya raghava iti bhavati iti prashnam prachanti chet uttaram datum asmin stare na shaknumi. Tatra vishishya sutrani santi, sutra kramena yada adhyayanam kriyate, tada eva taddhita sambadhaha niyamaha jnatum shakyante. Atra asmabhihi kim kriyate, kevalam parichayaha. Kaha vigraha bhavati, tasya taddhitantaha kim bhavati, ityeva vayam jnatum prayatnam kurmaha. Idanim apatyarthaka pratyayeshu, a iti pratyayaha. Arthat, shabdasya ante a iti shruyate akarantaha shabdaha bhavati taddhitantaha shabdaha akarantaha bhavati. The ending a is from the pratyaya. Tadrisham kutra kutra bhavati vasudevasya apatyam puman vasudevaha vasudevasya putraha vasudevaha krishnaha sarve janimaha atra vasudeva ityatra ante yaha akaraha saha taddhita pratyayasya akaraha. Evam parasharasya apatyam puman parasharaha. Kaha parasharaha? Vyasam vasishthanaptaram shakteh pautramakalmasham parasharat majam vande. Parasharasya atmajaha putraha vyasaha. Ataha parasharaha a ityasti. Sarve akarantaha shabdaha. Raghoho apatyam puman raghava raghavaha. Bhrugoho apatyam puman भार्गवः पृथायाः अपत्यं पुमान् पार्थः अर्जुनः अर्जुनस्य बहूनि नामानि सन्ति तेषु अन्यतमं पार्थः इति भवति भूमेः अपत्यं पुमान् भौमः एवं एते सर्वेपि तद्धितान्तशब्दाः अकारान्ताः अपत्यार्थकतद्धितान्ताः इति वदामः तद्धिते मया उक्तं विशिष्य नियमः इति किमपि न जानीमः किन्तु एकः अंशः वन् इम्पोर्टेण्ट् फीचर् आफ् तद्धितस् इस् काल्ड् आदिवृद्धि सामान्यतः यत्र यत्र तद्धिताः इति वदामः तत्र तत्र आदिवृद्धिः इति कथ्यते कः अर्थः आदेः वृद्धिः आदिः द फस्ट् स्वर द फस्ट् वोवेल् इन् द वर्ड् गेट्स् वृद्धि वाट् इस् वृद्धि व्याकरणे वृद्धिरादैच् इत्यस्ति आ ऐ औ एतेषां वर्णानां वृद्धिः इति नाम अस्ति अतः किं भवति इति चेत् वयं सुबन्तात् तद्धितप्रत्ययं योजयामः सुबन्तस्य प्रथमवर्णे भेदः भवति वृद्धिः भवति उदाहरणार्थं यदि आदौ अकारः अस्ति तर्हि आकारः भवति यथा रघु राघव अत्र अ अस्ति राघव इत्यत्र तु आ एवं पाण्डु पाण्डव यदि पूर्वमेव आकारः अस्ति तर्हि क्लेशः नास्ति पूर्वं ह्रस्व आकारः अस्ति चेत् दीर्घ आकारः भवति दशरथ दाशरथि वसुदेव वासुदेव एवम् अकारस्य आकारः भवति सः आदिवृद्धिः इति कथ्यते एवमेव इ ई ए ऐ एते वर्णाः सन्ति चेत् ऐकारः भवति इफ् द फस्ट् लेटर् इस् एनी आफ् दीस् इकार एकार और् ऐकार देन् वि गेट् ऐ इन् द तद्धित सो विष्णु इ अस्ति वैष्णव भीम भैम भैमी इत्यस्ति भीमस्य अपत्यं स्त्री भैमी दमयन्ति यदि नलदमयन्त्योः कथां जानन्ति नलस्य पत्नी दमयन्ती तस्याः पिता भीमः भीमस्य पुत्री भैमी इति कथ्यते सो ईकारस्यापि ऐकारः इकारस्यापि ऐकारः शिव शैव भीम भैम देव दैव एकारस्य ऐकारः सो आल् दीस् लेटर्स् ई ए If you originally have I, then you won't see a difference. So, all these are converted to I. So, A, I. Agre, Ukaraha. U, U, O, Au. Ete varanaha santi chet, Aukaraha bhavati. Kuru, Kaurava. So, Ku, Kau. Bhumi, Bhauma. U becomes au. O also becomes au. Drona becomes drauni. So ukarasya okarasya va aukaraha bhavati. Ikarasya ekarasya va ai bhavati. Akarasya a iti bhavati. Tataha rikaraha asti chet. If there is a rikara, you get ar. Ar. इति भवति पृथा पार्थ सो पृ बिकम्स् पार पार्थ भृगु बिकम्स् भार्गव ओके सो द यूज ऑफ नोइंग दिस ऑल दिस इज कॉल्ड आदिवृद्धि द फर्स्ट लेटर ऑफ द तद्धितांत इन 90% ऑफ केसेस इट इज नॉट ऑलवेज नॉट 100% In 90% of cases, the Tadhitanta word has Adi Vriddhi, which means looking at the first letter, you can guess. If you don't know where it is coming from, you can make a guess. Say Bhargava, you don't know what it is coming from. You hear that R, immediately you think of R. So you take the Vyanjana, put R, Bhrga, then you can guess it is Bhrgu. Similarly, Partha, you don't know what it comes from, R, you take it back to R, you get Pritha, Pritha. So it can serve as a clue to know where you are getting the, of course, to guess the final form and also to guess the Vigraha. So Adivriddhihi Samanyataha Tadhyate Bhavati. Satyam Rishi Arsha. Ru ityasya kevalam ar iti bhavati arsha arsha prayogaha iti bahudha vadamaha kaha arsha prayogaha rishibhihi kritaha prayogaha arshaha ityarthaha tatrapi asti adivriddhihi asti. Astu. So this is a general prakriya clue about tadhitas. We'll go back. Idanim akarantaha tadhitantaha apatyarthaka tadhitantaha drishtaha punarekavaram vadami. So vasudevaha parasharaha raghavaha bhargavaha parthaha bhaumaha. So atrapi pashyantu va va pa pa ra ra Bhr, bhar, pr, par, bhu, bhau, adivriddhi sarvatra asti. Idanim ekaha abhyasaha atra tadhita shabdaha diyate asya vigraha vaktavyaha. Vigraha vakyam vaktavyam. Apatyam puman iti tu samanyam. Kasya apatyam puman iti vaktavyam. ये वक्तुम इच्छन्ति कृपया हस्तम उन्नयन्तु. ओके हा अरुणा भगिनी काश्यपः
काश्यपः कश्यस्य पुत्रः अपत्यं काश्यपः
कश्यपस्य पुत्रः अथवा कश्यपस्य अपत्यं पुमान. Okay, Kashyapasya Putraha iti yuktam, but generally we write Vigraha this way, especially if you are writing the exam, please write it as Apatyam Puman. So Kashyapasya Apatyam Puman, Kashyapaha Prajapatihi, Tasya Putraha Kashyapaha. So there are like, he has hundreds of sons, so any of them could be Kashyapa. Okay, so all Devas, Danavas, all of them are Kashyapas. यतोहि कश्यपस्य पत्नी अदिति अदितेः पुत्राः देवाः अतः तेपि काश्यपाः दानवाः अपि काश्यपाः. सो ऑल ऑफ देम कैन बी रेफर्ड टू एज काश्यप. शाकुंतलः जयश्री भगिनी
शकुंतलायाः अपत्यं पुमान.
सम्यक् शकुंतलायाः अपत्यं पुमान शाकुंतलः. अत्र किञ्चित् ज्ञानमपि अपेक्षते. You can say Shakuntalasya Apatyam Puman. If you don't know, if you have no idea who is, if you have never heard of Shakuntala, you cannot guess whether it is Shakuntalaha or Shakuntala. Okay. So, saha bhedaha nasti. It can be from a man or from a woman. Bhedaha nasti. Ataha kinchit arthajnanam sambadhajnanam apekshyate atra tadhita vishaye. So Shakuntalayaha apatyam puman Shakuntalaha sarvadamanaha athava bharataha saha Shakuntalaha. Agrimam Kishor Munaya Paulastyaha. Nashruyate. Hariyam. वदतु महोदय पौलस्त्यः. कैन ट्राई. अस्तु लता भगिनी.
पुलस्
पुलस्त्यस्य अपत्यं पुमान् पौलस्त्यः. कः पौलस्त्यः प्रसिद्धः?
न जानामि.
न जानाति वा? रावणः. रावणस्य पौलस्त्यः इत्यस्ति. पौलस्त्य वधः इति काव्यमपि अस्ति. सो पुलस्त्यः इति कश्चित् प्रजापतिः, सः अपि पुलस्त्यः, पुलहः, क्रतुः इत्यादि. तस्य गोत्रापत्यं, साक्षात् पुत्रः न, तस्य गोत्रे जातः पौलस्त्यः. सो पौलस्त्यः रावणः. ओके, अग्रे महालक्ष्मी. यादवः.
यदोः अपत्यं पुमान्.
यदोः अपत्यं पुमान् यादवः. सो यदुः, पुरुः इत्यादि ययातेः पुत्राः आसन्. तत्र पुरोः पुत्राः पौरवाः. सो कौरवाः, पाण्डवाः सर्वेपि पुरुवंशीयाः, अतः पौरवाः. कृष्णः, कृष्णस्य कुलं यदुकुलम्, अतः सः यादवः. कृष्णः, बलरामः, ते सर्वेपि यादवाः. ऐन्द्रः. लता भगिनी, विद्यारण्य.
इन्द्रस्य अपत्यं पुमान्
सम्यक्. इन्द्रस्य अपत्यं पुमान् ऐन्द्रः. इन्द्रस्य पुत्रः जयन्तः अथवा अर्जुनः. अर्जुनस्यापि ऐन्द्रः इति व्यवहारः अस्ति. सारस्वतः. मोहन महोदय.
सरस्वत्याः अपत्यं पुमान्.
सम्यक्. सरस्वत्याः अपत्यं पुमान् सारस्वतः. स्वत्र सर्वत्रापि अकारान्ताः शब्दाः, तद्धितान्ताः सन्ति. अग्रे गच्छामः. अपत्यार्थकः इ इति प्रत्ययः. अत्र के के शब्दाः आगच्छन्ति इति पश्यामः. दशरथस्य अपत्यं पुमान् दाशरथिः. द्रोणस्य अपत्यं पुमान् द्रौणिः. द्रौणिः अश्वत्थामा, द्रोणस्य पुत्रः. वरुणस्य अपत्यं पुमान् वारुणिः. भृगुर्वैवारुणिः इति उपनिषदि अस्ति. वारुणिः, वरुणस्य अपत्यं पुमान् वारुणिः. दुष्यन्तस्य अपत्यं पुमान् दौष्यन्तिः. स एव शाकुन्तलः, स एव दौष्यन्तिः. यदा दुष्यन्तस्य अपत्यम् इत्युच्यते तदा इ इकारान्तः भवति. दौष्यन्तिः. शूरस्य अपत्यं पुमान् शौरिः. शौरिः इत्यपि कृष्णस्य एव नाम. शौरि, शू, शौ, दु, दौ, व, वा, द्रो, द्रौ, द, दा. सर्वत्रापि आदिवृद्धिः अस्ति. रावणस्य अपत्यं पुमान् रावणिः. रा, रा, अत्र आदिवृद्धिः न ज्ञायते. पूर्वमपि आकारः अस्ति, अनन्तरमपि आकारः. किन्तु रावणि इति इकारान्तः शब्दः. प्रसिद्धः श्लोकः अस्ति, लक्ष्मणेन उच्चारितः. शरैनं जहिरावणिम् इति सः अस्त्रं सम्मन्त्र्य, रावणिः इन्द्रजित्, रावणस्य पुत्रः, मेघनादः, तं हन्तुं सः एकं श्लोकं वदति. धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि युद्धे चाप्यप्रतिद्वन्द्वः शरैनं जहि रावणिम्. रावणिं जहि, हे बाण, तं रावणिं मेघनादं मारय इति सम्मन्त्र्य सः अस्त्रं प्रयुङ्क्ते इति वाल्मीकिरामायणे अस्ति. रावणिः रावणस्य पुत्रः मेघनादः. अस्तु, अत्र अपरः अभ्यासः इदानीं विग्रहवाक्यं दीयते तस्य तद्धितान्तशब्दः वक्तव्यः. अत्र केचन अकारान्ताः अपि सन्ति, इकारान्ताः अपि सन्ति. फोर् नौ यु केन् ट्रै टु गेस्. एस् यु बिकम् फेमिलियर् यु विल् नो विच् इस् करेक्ट्. I mean, most of these are pretty familiar words. So, manoh apatyam puman. Nanda Kumar Mohanaya.
Namaste, Bhagini. Manoh apatyam puman manavaha.
Manavaha. Samyak. Dhanyavadaha. Manoh apatyam puman manavaha. Vayam sarve manavaha. Ityukte manoh अपत्यानि इत्यर्थे एव मानव शब्दः. धनोः अपत्यं पुमान्. किशोर महोदय.
दानवः.
दानवः. सम्यक्. धनोः अपत्यं पुमान् दानवः. कश्यपस्य पत्नीषु धनुः इत्यपि अन्यतमा. तस्याः पुत्राः दानवाः. दक्षस्य अपत्यं पुमान्. पद्मनाभन् महोदय.
दाक्षः.
दाक्षिः. अत्र इकारान्तः भवति. दाक्षिः. दक्षस्य अपत्यं दाक्षिः. प्रिया भगिनि.
सात्यकस्य अपत्यं पुमान् सात्यकी.
सात्यकिः. सम्यक्. कृष्णस्य बन्धुः सः सात्यकिः. सत्यकस्य अपत्यं पुमान् सात्यकिः. मारुतस्य अपत्यं पुमान्.
मारुतिः.
मारुतिः. मारुतस्य अपत्यं पुमान् मारुतिः. अत्र विवरणं नापेक्ष्यते. सुमित्रायाः अपत्यं पुमान्.
सौमित्रिः.
सौमित्रिः. लक्ष्मणः. लक्ष्मणस्य सौमित्रिः इत्यस्ति. सुमित्रायाः अपत्यं पुमान् सौमित्रिः. अतः अत्र दाक्षी, सात्यकी, मारुति, सौमित्रि इति इकारान्ताः. मानव, दानव इत्यत्र अकारान्तशब्दौ भवतः. अग्रे गच्छामः. इतोपि एकः प्रसिद्धः अपत्यार्थकप्रत्ययः अस्ति, एय प्रत्ययः. बहवः प्रश्नाः सन्ति. ऐ एम् डेलिबरेट्लि नाट् टेकिङ्ग् क्वश्चन्स् इन् द मिडल् बिकास् मेनि आफ् दोस् क्वश्चन्स् विल् बि आन्सर्ड् बै द टैम् वि रीच् द एण्ड् आफ् द क्लास्. अतः सर्वेषां प्रश्नानाम् उत्तरम् अन्ते दास्यामि. यदि इतोपि ते प्रश्नाः सन्ति तर्हि तदा वक्ष्यामि. आदौ यत् पठनीयं तत् पठित्वा समापयामः. एय इति कश्चित् प्रत्ययः अस्ति, सः अपि अत्यन्तं प्रसिद्धः अस्ति तद्धितान्तेषु. विनतायाः अपत्यं पुमान् वैनतेयः. रामं, स्कन्दं, हनूमन्तं, वैनतेयं, मृकोदरम् इति शयनकाले बहुभिः श्लोकः उच्यते. वैनतेयः विनतायाः पुत्रः, गरुडः इत्यर्थः. विनतायाः अपत्यं पुमान् वैनतेयः, गरुडः. कुन्त्याः अपत्यं पुमान् कौन्तेयः. कौन्तेयः यः कोऽपि युधिष्ठिरः, भीमः अथवा अर्जुनः, कर्णः अपि, ते सर्वेपि कौन्तेयाः. कुन्त्याः अपत्यं पुमान् कौन्तेयः. गङ्गायाः अपत्यं पुमान् गाङ्गेयः. गङ्गायाः अपत्यं पुमान् गाङ्गेयः, भीष्मः. अञ्जनायाः अपत्यं पुमान् आञ्जनेयः. राधायाः अपत्यं पुमान् राधेयः. कर्णः, यद्यपि सः साक्षात् तस्याः पुत्रः न, सा एव पालितवती इत्यतः राधेयः इति व्यवहारः प्रसिद्धः अस्ति. अदितेः अपत्यं पुमान् आदितेयः. अत्र सर्वत्रापि एय इति अन्ते श्रूयते. अकारान्ताः एव शब्दाः, किन्तु अत्र प्रत्ययभागः एय इति भवति. सो वन् कामन् फीचर् विच् यु वुड् हव् नोटिस्ड् इस् मेजारिटि आफ् सच् एय वर्ड्स् आर् डिरैव्ड् फ्रम् स्त्रीलिङ्ग वर्ड्स्. विनता, कुन्ती, गङ्गा, अञ्जना, राधा, अदिति एट्सेट्रा. बट् इट् इस् नाट् अ हार्ड् फास्ट् रूल्. यत्र यत्र एय भवति सर्वत्र स्त्रीवाचकादेव इति नास्ति. यथा मार्कण्डेयः अस्ति, मृकण्डोः अपत्यं मार्कण्डेयः, तत्र सः पितुः नाम एव मृकण्डुः. एण्ड् आल्सो इट् इस् नाट् दट् यदि स्त्रीलिङ्गशब्दः तर्हि एय एव भवति इति नास्ति. वि हव् आलरेडी सीन् शाकुन्तलः, सौमित्रिः एट्सेट्रा. So as I said, in Tadhitas, it is very, very difficult to have a rule as a 100% this is what it is. Shabdaha evam asti ityeva jnatavyam, kimartham evam kimartham tatna iti prashnaha na prashtavya. Definitely not at this stage, but even later it is very difficult because Tadhitas are like that. There is a huge variety and you know, it is like sets and sets of words. For these words, you have this. For these words, you have that. Why? Because the language uses them. Bhashayam evam prayogaha asti ityeva. Okay. So, a pratyayaha drishtaha, I pratyayaha drishtaha, eya iti pratyayaha drishtaha. Stri shabdaha apatyarthakaha. This is not a separate category. In all the previous cases, we have just been looking at apatyam puman. So everywhere you can also have apatyam stri. Okay. So normally if it is apatyam stri, whatever the original pratyaya, whether it is a or aya or whatever, so you will usually end it in e. That's all. Okay. So drupadasya apatyam stri draupadi. जनकस्य अपत्यं स्त्री जानकी. गर्गस्य अपत्यं स्त्री गार्गी. पर्वतस्य अपत्यं स्त्री पार्वती. कैकेयस्य अपत्यं स्त्री कैकेयी. गांधारस्य अपत्यं स्त्री गांधारी. सो इन ऑल दीज केसेस यू जस्ट हैव द ई. For the previous ones, you can also have E, like Kaunteyi. If Kunti had a daughter, she could be Kaunteyi. Or Gangeyi, Anjaneyi. It's all possible. But as far as we know, there were no daughters in any of these cases. Okay. So, Sarvatrapi Apatyam Puman, Apatyam Stri, iti Ubhayatha Kartum Shakyate. Samanyataha Stri Vachakanam E Karantatvam Bhavati. सो द्रौपदी, जानकी, गार्गी इति यथा तथा. यदि अत्र पर्वतस्य अपत्यं पुमान् इति भवति, प्रायः पार्वतः इति भवति इत्यादि. सो देर् आर् अदर् रूल्स् आल्सो. सो अ बिट् काम्प्लिकेटेड् बट् जनरलि इट् इस् ईज़ी टु गेस्. अस्तु, तृतीयः अभ्यासः. एकं पदं वदत. अत्र वाक्ये पदद्वयं भवति, तस्य स्थाने एकं पदं तद्धितान्तपदं वक्तव्यं भवति. यथा सीता जनकस्य पुत्री इत्यस्ति, तो जनकस्य पुत्री इत्यस्य स्थाने एकं पदं वक्तव्यम्. राहुल् महोदय.
जनकस्य पुत्री जानकी.
जानकी, सीता जानकी. सम्यक्. अग्रे, लक्ष्मीः भृगोः पुत्री. राजलक्ष्मी भगिनी.
भार्गवी.
भार्गवी, भार्गवी इति नाम अस्ति. पुराणेषु काचित् कथा अस्ति, भृगुमहर्षेः पुत्री आसीदिति, अतः लक्ष्म्याः भार्गवी इति नाम अस्ति. उपपाण्डवाः द्रुपदस्य पुत्र्याः पुत्राः. सो बहुभिः तः प्रश्नः पृष्टः अस्ति कैन यू डू ओनली वन तद्धित और कैन यू डू अ तद्धित ऑन अ तद्धित सी जनरली व्हेन यू आर ट्रेसिंग फ्रॉम द मेल लीनिएज यू से रघोः अपत्यम राघवः राघवस्य अपत्यम पुनः राघवः एव As I said, whether it is your son or grandson or great-grandson, they can all be referred to by the same name. Ataha tatra bhedaha na drishyate. But kadajit bhedaha drishyate. Okay, yatha atra prayatnam kurmaha. Kopi prayatnam karotiva. Drupadasya putriyaha putraha. Ramakrishna Rao.
Draupadeya.
द्रौपदेय बहु सम्यक् द्रुपदस्य पुत्री द्रौपदी
द्रौपद्याः
सम्यक् सो उपपाण्डवाः इति तेषां नाम पञ्च सन्ति ते द्रौपदेयाः सो इट् ईस् पासिबल् टु आड् अ तद्धित प्रत्यय आन् अ तद्धितान्त देर् इस् नो रिस्ट्रिक्षन् दट् यु हाव् टु आड् ओन्ली वन् बट् वेन् यु आर् ट्रेसिङ्ग् युर् पेटर्नल् लीनियेज् The whole lineage is known by the same name. Samanyataha tatra bhedaha na bhavati. Kintu yatra sambhavaha asti tatra taddhitasya upari punaha taddhita pratyayaha kartum shakyate. Ha, idanim vyasaha vasishthasya prapautraha parasharasya putraha atra taddhita anta dvayam asti. Shrimata.
Vasishthaha parasharaha. Ha.
सम्यक् वसिष्ठस्य गोत्रापत्यं पुमान् वासिष्ठः पराशरस्य पुत्रः पाराशरः उत्तमं वासिष्ठः पाराशरः सगरस्य पुत्राः सागरं निखातवन्तः उमा भगिनि You have to unmute yourself. Click on the microphone. Uma Devi, Magini. You have to unmute yourself.
Namaste.
निखातवन्तः निखातवन्तः इत्येव तत्र भेदः नास्ति सो निखातवन्तः इस् डग् सो दे डग् अप् सागरस्य पुत्राः सागराः सो सागराः सागरं निखातवन्तः द सागर वास् एक्चुअलि काल्ड् सो बिकास् इट् वास् सेट् टु बी डग् अप् बै द सन्स् आफ् सागर सो देर् इस् आल्सो वन् मोर् थिङ्ग् द वर्ड् सागर नीड् नाट् आल्वेस् मीन् द सन् आफ् सागर सः अपि एकः अंशः ओके यथा इदानीम् ऐन्द्र इति उच्यते सो ऐन्द्र केन् हाव् 10 डिफरेण्ट् मीनिङ्ग्स् इट् केन् बी इन्द्रस्य पुत्रः इट् केन् बी इन्द्रस्य दिक् सास्य देवता सो देर् इस् अ दिक् ऐन्द्री मीन्स् द ईस्टर्न् डिरेक्षन् सो द डिरेक्षन् विच् इस् गवर्न्ड् बै इन्द्र इस् ऐन्द्री और् ऐन्द्रं हविः एन् आफरिङ्ग् विच् इस् मेण्ट् फार् इन्द्र केन् बी ऐन्द्र Or say something which belongs to Indra, like Indra's elephant. So, Aindraha Airavataha. Evam taddhiteshu ekasya shabdasya eka eva arthaha iti nasti. Atra sagarasya putraha sagaraha. Sagara shabdasya sagarasya putraha ityarthaha. Punaha yada samudraha ityarthe sagara shabdasya prayogaha bhavati. Sagarasya idam sagaram, something that belongs to. सामान्यतः सम्बन्धार्थे सागरशब्दः अपि अस्ति अतः तद्धितशब्दानां बहवः अर्थाः भवन्ति वाट् वि आर् लर्निङ्ग् इस् ओन्ली अ general or the very popular meaning, especially in this context, we are looking at them as apatyarthakas. But it could be many different things. For example, Vasishtha. There is a particular Samaveda mantra which is called Vasishtha. Vasishtham Sama. So, Tena Drishtam. That which was seen. Vasishthena Drishtam Sama Vasishtham. Ityapi Kathyate. Okay. So, Tadhitas have that power of conveying a wide range of meanings. Bhishmaha Shantanoh Putraha Gangayascha Putraha. Anye Gepi Vaktum Ichanti. Chandrasekharan Mohalaya.
Bhishmaha Shantanoh
Gangayascha. Anashruyate Kinchil Ucchaihi.
Bhishmaha Shantanoh
Gangayaha Shantanavaha. Yudhashthiras Shantanavam Punarevabhyabhashata. Vishnudasanamastotrasya Pitika Bhagyasi. Shantanavaha Nama Bhishmaha. Yatha Raghu Ityasmat Raghava Iti Bhavati. Evam Shantanu Ityasmat Shantanavaha. Bhargavaha. Samanyataha Tatra U Ityasti Chet Ava Iti Shruyate. Bhrigu Bhargava. Pandu Pandava. Kuru Kaurava. Yadu Yadava Shantanu Shantanava Shantanavaha Gangeyaha Gangayaha Putraha Gangeyaha. Hastu Etavata Samanyaha Apatyarthaka Shabdaha Jnataha Pullingeshu Akarantaha Bhavanti Ikarantaha Bhavanti Eya Ityantaha Bhavanti Strilinge Samanyataha Sarvatrapi ईकारांताः भवन्ति इदानीं केचन विशिष्टाः अपत्यार्थक शब्दाः सम स्पेशल वर्ड्स व्हिच आर नॉट लाइक द जनरल केसेस किंतु प्रसिद्धाः शब्दाः पुत्रस्य अपत्यम् द चाइल्ड ऑफ सन दैट इज ग्रैंडसन और ग्रैंडडॉटर सो पौत्रः अथवा पौत्री पुत्रस्य अपत्यम् पुमान पौत्रः ग्रैंडसन पुत्रस्य अपत्यम् स्त्री पौत्री ग्रैंड डॉटर इत्यर्थः अगेन इट इज पुत्रस्य अपत्यम् सो द सन और डॉटर ऑफ द सन दुहितुः अपत्यम् दुहिता इत्युक्ते पुत्री इत्यर्थः दुहितुः अपत्यम् दौहित्रः संस्कृते भेदः अस्ति इट इज नॉट ग्रैंड सन इन कॉमन सो पुत्रस्य पुत्रः पौत्रः दुहितुः अपत्यम् सो ग्रैंडसन थ्रू द डॉटर इज दौहित्रः और दौहित्री सामान्यतः संप्रदाये द कल्याणपत्रिके द इनविटेशन कार्ड्स विल हैव अस्य पौत्रः अस्य दौहित्रः विल टेक द नेम्स ऑफ बोथ ग्रैंड पेरेंट्स सो पौत्रः पौत्री दौहित्रः दौहित्री एतेपि तद्धितांत शब्दाः वी आर नॉट गोइंग इनटू विच प्रत्यय बट ऑल दीज वर्ड्स आर तद्धितांत शब्दाः इतोपि बहवः संबंधवाचकाः शब्दाः सन्ति भ्रातुः अपत्यम् नेव्यू अथवा नीस इति कथ्यते सो माय ब्रदर्स चिल्ड्रन सो भ्रातृव्यः अथवा भ्रातृव्या इत्युक्ते पुत्रः चेत् भ्रातृव्यः पुत्री चेत् भ्रातृव्या सो भ्रातुः अपत्यम् भ्रातृव्यः भ्रातृव्या एवमेव स्वसुः अपत्यम् सो द चाइल्ड ऑफ सिस्टर् सो आंग्ले पुनः समानं पदं किन्तु अत्र भेदः अस्ति स्वसुः अपत्यम् स्वश्रीयः स्वश्रीया सो भ्रातृव्यः स्वश्रीयः भ्रातृव्या स्वश्रीया अत्र भागिनेयः भागिनेयी इत्यपि अस्ति भगिन्याः अपत्यम् भागिनेयः भागिनेयी इत्यपि अस्ति स्वश्रीयः स्वश्रीया इत्यपि अस्ति इतोपि किञ्चित् दूरं गच्छामः चेत् पितृश्वसुः अपत्यम् पितृश्वसा पितुः स्वसा भगिनी, पितुः भगिनी अत्तै इति कथ्यते. सो आंट, सो द पेटर्नल आंट इज पितृश्वसा. तत्र विशेषः अस्ति पितृ स्वसा समासः, पितुः स्वसा, किन्तु सकारस्य षकारः भवति इति विशेषः. देयर इज अ स्पेशल रूल. सो पितृश्वसा इज पितुः भगिनी, तस्याः पुत्रः पैतृश्वश्रेयः, पैतृश्वश्रेयी. सो फ्रॉम पितृश्वसा यू हैव पैतृश्वश्रेयः, द कजिन. माय aunt's son or daughter is my cousin. So tasmin arthe paitrishvasreyaha paitrishvasreyi. Eva meva matrishvasuhu. So if it is the aunt from the mother, mother's sister, elder or younger sister. So doddamma chikkamma athava perima chitti. So tesham putrasya matrishvasreyaha मातृश्वश्रेयी. ऑल दीज आर कजिन्स, बट द संस्कृत वर्ड स्पेसिफिकली पॉइंट्स आउट व्हाट इज द रिलेशन. देयर इज पिता, पितुः स्वसा, तस्य पुत्रः. द होल रिलेशन इज एनकंपास्ड इन द सिंगल वर्ड. सो मातृश्वश्रेयः, मातृश्वश्रेयी. मातुलस्य अपत्यम्, देयर इज आल्सो द अंकल, द मेटर्नल अंकल. मातुलः शब्दः प्रसिद्धः अस्ति, मातुलः मामा इत्यर्थः. तस्य अपत्यं मातुलेयः, मातुलेयी. सो मातुः भ्रातुः, सो अंकल्स सन् यु हैव मातुलेयः, मातुलेयी. वेर एज मदर्स सिस्टर्स यु हैव मातृश्वश्रेयः, मातृश्वश्रेयी. Father's sister, so their son is Paitrishvasreyaha, Paitrishvasreyi. There is no one more, father's brother. So if it is father's brother, their sons are brothers or sisters. So we don't call them as cousins. So traditionally they are treated as brothers, sisters. Ataha tatra vishishya padam nasti. Pitruvyaha ityuchyate, pituhu bhrata. There is a word for brother of father, किन्तु तत्पुत्रस्य विशिष्य पदं नास्ति. दायादाः इति उच्यते because they are inheritors, otherwise brothers एव. सो पौत्रः पौत्री, दौहित्रः दौहित्री, भ्रातृव्यः भ्रातृव्या, स्वश्रीयः स्वश्रीया, पैतृश्वश्रेयः पैतृश्वश्रेयी, मातृश्वश्रेयः मातृश्वश्रेयी, मातुलेयः मातुलेयी. मे टेक सम टाइम फॉर थिंकिंग बिकॉज अनफॉर्चुनेटली इवन दो मोस्ट ऑफ द इंडियन लैंग्वेजेस हैव स्पेसिफिक टर्म्स फॉर कन्वेइंग ऑल दीज रिलेशंस, वी हैव प्रोबेबली लॉस्ट ट्रैक ऑफ ऑल दोज एंड रिप्लेस्ड मेनी ऑफ देम विथ आंट एंड अंकल और डायरेक्ट नेम्स. Unfortunately, so like this you can make so many more words with taddhita pratyaya samskrute vishishya bahudha padani santi, but this is at least the first generation level. Atah etesham va gyanam bhavati chet samyak. Iranim ekah abhyasah. Atra krishnasya bandhavaha santi. Okay. सो कृष्णः कुत्र अस्ति? अत्र अस्ति कृष्णः. सो कृष्णः, कृष्णस्य पितरौ देवकी, वसुदेवः. सो देवक्याः पिता देवकः. तत्र पुनः तद्धितः, देवकस्य अपत्यं स्त्री देवकी, मातुः नाम न ज्ञायते. एवं वसुदेवः, तस्य पिता शूरसेनः. शूरः इत्यपि उच्यते, अत एव शौरिः इति कथ्यते कृष्णः. सो शूरसेनः अस्ति कृष्णः. देवकी वसुदेवयोः कृष्णः सुभद्रा. वसुदेवस्य रोहिणी इत्यपि पत्नी आसीत्, तस्याः पुत्रः बलरामः. सो कृष्णः सुभद्रा बलरामः. कृष्णस्य पत्नी रुक्मिणी, तयोः पुत्रः प्रद्युम्नः. प्रद्युम्नस्य पुत्रः अनिरुद्धः. ओके. सो देन अगेन सुभद्रा, सुभद्रायाः पतिः अर्जुनः. सो अर्जुनः वस्तुतः पृथा, पृथा वसुदेवस्य भगिनी. सो शूरसेनस्य वसुदेवः पृथा द्वौ अपि पुत्रौ अर्थात् पुत्रः पुत्री. सो शूरसेन गेव् पृथा तु कुंती भोज. दट्स् वै शी वाज़ कॉल्ड कुंती. He gave her in adoption. Kintu vastutaha vasudevasya swasa sa. So tayoho putraha arjunaha. Arjunasya putraha abhimanyu. Okay. So a short family tree of Krishna. Idanim atra kamshchana sambandhan nyatum prayatnam kurmaha. If anybody wants to attempt, please raise your hands. सो आदौ किं पश्यामः. देवकस्य कृष्णः कः. देवकस्य कृष्णः कः भवति. श्रीमती भगिनी
दौहित्रः.
दौहित्रः सम्यक्. सो देवकस्य दुहिता देवकी. तस्याः पुत्रः दौहित्रः. देवकस्य दौहित्रः कृष्णः. देवक्याः प्रद्युम्नः कः. राहुल महोदय
पौत्रः.
पौत्रः देवक्याः पुत्रः कृष्णः. तस्य पुत्रः पौत्रः. देवक्याः पौत्रः सम्यक्. अग्रे शूरसेनस्य सुभद्रा का भवति. जयश्री भगिनी
शूरसेनस्य पौत्री.
पौत्री शूरसेनस्य पुत्रः. तस्य पुत्री पौत्री सुभद्रा. उत्तमम्. अग्रे सुभद्रायाः प्रद्युम्नः. लता भगिनी
सुभद्रायाः प्रद्युम्न. ओके सो कृष्ण टु सुभद्रा. वन् सेकेण्ड्
भगिनी.
भगिनी
भ्राता
कृष्णः. कृष्णः भ्राता.
भ्रातुः पुत्रः.
भ्रातृव्यः.
भ्रातृव्यः सुभद्रायाः प्रद्युम्नः भ्रातृव्यः. सम्यक्. भ्रातुः पुत्रः भ्रातृव्यः. अग्रे बलरामस्य अभिमन्युः. प्रिया भगिनी
बलरामस्य अभिमन्युः. स्वसु
स्वसुः अपत्यम्.
स्वसुः पुत्र. स्वसुः अपत्यम्. स्वस्त्रीयः.
स्वस्त्रीयः सम्यक्. स्वस्त्रीयः अथवा भागिनेयः. भगिन्याः अपत्यं भागिनेयः. बलरामस्य अभिमन्युः स्वस्त्रीयः अथवा भागिनेयः. सम्यक्. अग्रे कृष्णस्य अर्जुनः. महादेवन् महोदय कृष्णस्य पिता वसुदेवः.
Sister's husband,
no? Sister's husband, yeah, that is possible. But I was looking at apatyartha. Saha bhavati, shalaha, correct. That is the sister's husband is shalaha. Apatyarthe.
Apatyarthe.
Arjunaha.
Arjunaha prithaha, prithayaha putraha.
पृथाका
कृष्णस्य वासुदेवस्य पत्नी.
वसुदेवस्य भगिनी.
वसुदेवस्य भगिनी. कृष्णः वसुदेवस्य पुत्रः.
कृष्णस्य पितुः स्वसा. अतः कुन्ती पितृश्वसा. कृष्णस्य पितृश्वसः अत्ते.
पितृश्वसायाः पुत्रः. पितृश्वश्रेयः.
पैतृश्वश्रेयः.
Paitrishvasreya,
it's quite complicated. Yes, yes. Especially because you're not used either to the relations or to the tadhita words. Kintu yatha yatha prayogam kurmaha chet nischayena bhavati. Prayogaha nasti itera. So even before he married Subhadra, so Krishnasya Pitrishvasa Pratha Tasyaha Putraha Paitrishvasreyaha. Astu. Antimam. प्रद्युम्नस्य अभिमन्युः. मातुलेयः. मातुलेयः सम्यक्. सो अभिमन्योः माता सुभद्रा, कृष्णः मातुलः, प्रद्युम्नः मातुलेयः. धन्यवादाः. सो एवं सो एज ही सेड यस, इट्स अ बिट डिफिकल्ट बिकॉज वी आर नॉट यूज्ड टू दीज वर्ड्स, किंतु यथा अभ्यासं कुर्मः अद्यतन अभ्यासः स एव भविष्यति. सो यू हैव टू मेंशन अ फ्यू ऑफ योर रिलेशंस यूजिंग दीज टर्म्स. ओके, सो मम पितृश्वसा का, पैतृश्वश्रेयः कः इत्यादि किञ्चित् भवति, अभ्यासं कुर्मः भवत्येव. सो अद्यतनसङ्क्षेपः, अद्य अपत्यार्थकतद्धितानां विषये ज्ञातवन्तः. अ प्रत्ययः कदाचित् भवति, यथा राघवः, वासुदेवः इत्यादि. इ प्रत्ययः क्वचित् भवति, दाशरथिः, शौरिः इत्यादि. एय इति प्रत्ययः अपि भवति, आञ्जनेयः, वैनतेयः इत्यादि. स्त्री अपत्यानि यत्र भवन्ति सामान्यतः ईकारान्तः एव भवति, जानकी, द्रौपदी इत्यादि. सो अत्रापि यदि दशरथस्य अपत्यं स्त्री, दाशरथी इति भवति. सो दक्षस्य अपत्यं स्त्री, दाक्षी, इकारान्तः पुल्लिङ्गः, तत्र ईकारान्तः स्त्रीलिङ्गः सामान्यतः भवति. कदाचित् अपवादः भवेत्, बट् जनरलि वेन् यु आर् यूसिङ्ग् दट् अपत्यं स्त्री, इट् विल् बि ईकारान्त. सो विशिष्टशब्दाः अपि अस्माभिः ज्ञाताः, तत्र अपि सम्बन्धवाचकशब्दाः, पुत्रः, दौहित्रः, भ्रातृव्यः, स्वश्रीयः, पैतृश्वश्रेयः, मातृश्वश्रेयः, मातुलेयः इत्येते शब्दाः, तेषां स्त्रीलिङ्गरूपाणि च ज्ञातानि. तद्धितेषु आदिवृद्धिः, अकारस्य आकारः, इ ए एतयोः ऐकारः, उ ओ एतयोः औकारः, ऋकारस्य आर् इति आदिवृद्धिः भवति. अत्र समापयामि. श्वः रघुवंशस्य वर्गः भवति, मङ्गलं कृत्वा प्रश्नानाम् उत्तरं दास्यामि. ये ये प्रश्नाः सन्ति, आदौ बहवः सन्ति, आरम्भतः उक्तमित्यतः ये गन्तुमिच्छन्ति गन्तुमर्हन्ति. गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो. सो द्रौणि इत्यत्र अपत्यं स्त्री वा इति प्रश्नः न, द्रोणस्य अपत्यं पुमान् द्रौणिः, द्रोणस्य पुत्रः एव द्रौणिः. एज़ आई सेड, इफ् ही हेड् अ डॉटर् इट् वुड् हेव् बीन् द्रौणी इति भवति. ओके, यदुकुलस्य अपत्यं पुमान् यादवः इति वा इति, न न, यदोः अपत्यं यादवः इत्येव. ओके, तत्र कुलम् इति नास्ति, मया उक्तं यदुकुलम् इति, किन्तु ये ये यादवाः तेषां सर्वेषां कुलं यदुकुलं, विग्रहकथनवेलायां तु यदोः अपत्यं यादवः इत्येव. सारस्वतम् इस् अ घृतम् इन् आयुर्वेद टु, एस् अ सेड् यस् तद्धित वर्ड्स् केन् हाव् many different meanings, so it is possible that Saraswata can be a wide variety of things. Is Dakshi feminine gender? Yes, Dakshihi iti pullinge, Dakshi iti strilinge. Okay. Is there a word matruvya like pitruvya? No, we have matula. Matuhu bhrata, matulaha ityeva asti. So, is it bhratru, cousin and sahodara, own brother? No. Sahodara is own brother. That is sons of the same mother, technically. Of born from the same womb are sahodaras. Bhratru is any brother, as in say Rama and Lakshmana, where bhratrus, though not sahodaras. Manava shabdasya strilinga rupam manavi bhavati va? Am bhavati. Even though we don't use it generally, bhavati. Is there a rule to get E anta and when do we get A anta? As I said, there are rules, but they are not, as in, they are not general rules. So there will be a set of words. For these words you get A and these words you get E. So it is not possible to summarize it. Okay. So at this stage, please familiarize yourself with the words where you get A and where you get E. That is all possible at this one. So does Dakshayani have any tradhita relation? Yes, Dakshasya apatyam stri Dakshayani. There is a special rule there. So we get Dakshayani is Daksha's daughter. Katyayani, Dakshayani, all those are also tradhita words. Okay. So I think those are the questions so far. There is one question about the audio quality. I don't know. I mean, from my side, everything seems to be the same. So I'll check the video and see if there is any issue with the audio. So any other questions? Astu tarhi shwaha milamaha. Dhanyavadah.